एसा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। प्रधानमन्त्री केपी शर्मा ओली निगदति कोरोना विषाणोः संक्रमणस्य महामारी प्रवृत्ति विभिन्नानां संकटानां वर्तमानावस्थायां संयुक्त राष्ट्रसंघस्य भूमिका अतिरिक्ता विस्तीर्णा वर्तते। संयुक्त राष्ट्रसंघस्य पञ्चसप्ततितमां महासभां शुक्रवासरस्य रात्रौ सम्बोधयन् प्रधानमन्त्री ओली अवोचत् सम्प्रति विश्वम् असाधारण समस्या संचलद् वर्तते। प्रधानमन्त्री ओली कोविड उनविंशतेः विरोधिनः टीकाकरणस्य विकासम् अनु सर्वेषां कृते सुफत सरल सहज प्राप्ति ज्ञानानुभवयोः आदान प्रदानम् औषधानाम् औषधजन्योपकरणानां च यथासमयम् आपूर्तिश्च विधातव्यः इत्यत्र बलमददात्। रोगात् बुभुक्षातश्च जनतायाः जीवनस्य सुरक्षणम् सर्वकारस्य विपुलतम दायित्वमस्तीति हेतोः सर्वेषाम् प्रयासानाम् स्रोतसाम् च एतदर्थमेव प्रयोगस्य अवस्थायाम् अन्तराष्ट्रिया ऐक्यबद्धता च महत्वपूर्णा भवतीति प्रधानमन्त्री ओली अभाषत। गतदिने अतिरिक्तेषु सहस्रे शतद्वय सप्तसु च जनेषु कोरोना संक्रमणं पुष्टीभूतं वर्तते। स्वास्थ्य जनसंख्या मन्त्रालयस्य ह्यस्तने नियमित संचार संक्षेप कार्यक्रमे मन्त्रालयस्य प्रवक्ता प्राध्यापकः डा जागेश्वर गौतमः देशस्य एकपञ्चाशति जनपदेषु शतचतुष्टय एकादशसु च महिलासु सप्तशते षण्णवत्यां च पुरूषेषु च संक्रमणं पुष्टीभूतमिति अज्ञापयत्। ह्य काष्ठमण्डपस्य पञ्चशतं त्र्यशीतिश्च भक्तपुरस्य त्रिषष्टि ललितपुरस्य अष्टसप्ततिश्चेति कृत्वा काष्ठमण्डपोपत्यकायामेव सप्तशते चतुर्विंशत्यां च जनेषु कोरोना संक्रमणं पुष्टीभूतं वर्तते। सम्प्रति आराष्टम् सप्तत्यां जनपदेषु अष्टादश सहस्राणि शतत्रयम् एकचत्वारिंशच्च सक्रिय संक्रान्ताः जनाः सन्ति। ह्य सहस्रेण शतेन चत्वारिंशत्ता च जनैः मुक्तिप्राप्तेः पश्चात् अद्यावधि संक्रमणात् मुक्तानां जनानां समग्र संख्या त्रिपञ्चाशत् सहस्राणि त्रयोदश च प्राप्तास्ति। कोरोना संक्रमणेन गतदिने अतिरिक्तानां अष्टानां जनानां मृत्योः पश्चात् संक्रमणेन मृतानां जनानां नेपाले अद्यावधि संख्या शतचतुष्टयं सप्तषष्टिश्च प्राप्तेति मन्त्रालयेन ज्ञापितं वर्तते। स्वास्थ्य जनसंख्या मन्त्रालयेन यात्रायाः अनुपदमेव आशंकया कोरोना परीक्षणं न विधातुम् अनुरुद्धं वर्तते। संक्रान्तानां व्यक्तिनां प्रत्यक्ष सम्पर्के आगतानां जनानां पञ्चदिनेभ्यः पूर्वं परीक्षणे विहिते स्वस्मिन् संक्रमणम् अस्ति न वेति ज्ञातुं न शक्यते इति हेतोः यात्रायाः अनुपदमेव सहसा कोरोना संक्रमणं न परीक्षितुं मन्त्रालयस्य प्रवक्ता डा गौतमः अन्वरुणत्। विहितयात्रया व्यक्त्या सप्ताहद्वयावधि सुरक्षणावासे स्थातव्यम् एतदवधौ कोरोना संक्रमण सम्बद्धेषु लक्षणेषु अदृष्टेषु सत्सु विषयमिमं स्थानीय सर्वकाराय बोधयितुं प्रवक्ता डा गौतमः अन्वरुणत्। गृहमन्त्री रामबहादुर थापा भाषते हुम्ला जनपदस्य हिल्सा स्थाने चीनदेशेन नेपाली भूमि अतिक्रान्ता नास्ति। ह्य सुर्खेत जनपदे पत्रकारै सह भाषमाण गृहमन्त्री थापा परराष्ट्र मन्त्रालयेन विषयेऽस्मिन् स्पष्टीकृतम् अस्तीति हेतोः संचार माध्यमेषु विहितः प्रचारैव नेपाली भूमि चीनदेशेन न अतिक्रान्तेति स्पष्टीकृतवान्। गृहमन्त्री थापा आराष्ट्रम् जलविप्लव भूस्खलनाभ्यम् मानवीय जनधनयोः महति क्षति प्राप्तेति प्रतिवेदनस्य आधारे सुरक्षित वसतिं व्यवस्थापयितुं सर्वकारेण योजना अग्रे सारितेति अज्ञापयत्। परराष्ट्रमन्त्री प्रदीप कुमार ग्यवाली गदति विदेशेषु नेपालीभिः अधिगतानां ज्ञानशिल्प प्रविधिनां नेपाले हस्तान्तरणस्य सुवर्णावसारः आगतो वर्तते। आवासीयेतर नेपाली संघस्य एशिया प्रशान्त क्षेत्रस्य अष्टम क्षेत्रीय मेलां प्रथम विज्ञ सम्मेलनं च सम्बोधयन् मन्त्री ग्यवाली कोविड उनविंशत्युत्तर कालिकम् नेपालस्य अर्थतन्त्रम् उन्नेतुम् नवीन प्रविधिर्माध्यमेन राष्ट्रस्य समृद्धिर् विधातव्येति बलम् प्रादात्। मन्त्री ग्यवाली कोविड उनविंशतेः कारणेन विदेशेषु कठिनावस्थायाम् प्राप्तानाम् नेपालीनाम् स्वदेश प्रत्यावर्तन कार्यम् विधीयमानमस्तीति ज्ञापयन् वर्तमानाम् असहज परिस्थितिम् अन्य समय इव असहज रूपेण नमन्तुम् अपि अन्वरुणत्। मन्त्री ग्यवाली अब्रवीत् भारतेन सह तृतीय राष्ट्रेभ्यः प्रत्यावृतानाम् आसन्न दशलक्षाणाम् नेपालीनाम् कृते स्वदेशे मृत्युपार्जनस्य सर्जनम् समभयपूर्णम् वर्तते। कार्यक्रमे संघस्य पूर्वाध्यक्षौ देवमान हिराचन शेषघले च वर्तमानाध्यक्ष कुमार पन्तश्च विचारान् उदैरयन्। शिक्षा विज्ञान प्रविधि मन्त्रिण गिरिराजमणि पोखरेलेन कोविड उनविंशतेः संकटः विद्यमानः एवास्तीति हेतोः कतिचित् समये विद्यालयानां सञ्चालनस्य अपेक्षया वैकल्पिक शिक्षण प्रणाल्यै प्राथमिकतां प्रदातुम् अनुरुद्धमस्ति। शिक्षा पत्रकार समाजेन इह आयोजिते वैकल्पिक शिक्षणस्य क्रियान्वयने संचार माध्यमानां भूमिका विषयके संगणकीय श्रव्यदृश्य प्रविधेः विमर्शने शिक्षा मन्त्री पोखरेलः शिक्षालयेषु संक्रमणे दृष्टे सति तस्य नियन्त्रणे काठिन्यं भवतीति हेतोः सम्प्रति सूचना संचार प्रविधेः प्रयोगे आदृतायै वैकल्पिक प्रणाल्यै बलं प्रदातुम् अन्वरुणत्। स्वास्थ्य जनसंख्या मन्त्री भानुभक्त ढकालः गदति भोजने दैनन्दिन्यां च ध्याने प्रदत्ते सति अर्बुद रोगाद् रक्षणं सम्भवति। बीबी कोइराला स्मृत्यर्बुद चिकित्सालयस्य एकविंशस्य वार्षिकोत्सवस्य षोडश राष्ट्रियार्बुद सावधानता दिवसस्य च अवसरे ह्य आयोजितं कार्यक्रमं संगणकीय संयोजन माध्यमेन सम्बोधयन् असौ अवदत् अर्बुदस्य विषये जनचेतनायाः जागरणम् आवश्यकं वर्तते। मन्त्री ढकालः अभासत जनानां शारीरिक स्थूलतया निष्क्रियतया हरित व्यञ्जनानां फलानां च न्यून प्रयोगेण मदिरायाः तम्बाकु जन्य पदार्थानां च प्रयोगेण च अर्बुद रोगः उद्भवति। मन्त्रिणा ढकालेन प्रोक्तं वर्तमान सर्वकारः भाषणस्य अपेक्षया कार्येषु विश्वसिति इत्यतः सर्वैः स्वस्व क्षेत्र समाजस्य राष्ट्रस्य च कृते कार्याणि विधातव्यानि। भौतिक पूर्वाधार यातायात मन्त्री वसन्त कुमार नेवांग भासते कोविड उनविंशतेः महामार्याः समयेपि नूतन नेपाल निर्माणस्य महाभियानं सञ्चलदस्ति। पाँचथर वर्तिन्या जनपद समन्वय समितेः चतुर्थी जनपद सभाम इह फिदिम स्थाने सम्बोधयन् मन्त्री नेवांग अवोचत जनतायाः स्वप्नं पूरयितुं महामार्या सह योजनापूर्वकं समृद्ध राष्ट्र निर्माणस्य कार्याणि सञ्चाल्यमानानि सन्ति। कोविड उनविंशतेः महामार्याः कारणेन शिथिलायमानं पर्यटन क्षेत्रं गतिशीलं विधातुं सर्वकारस्य नैज क्षेत्रस्य च सहकार्ये देशदर्शन कार्यक्रमस्य अभियानं प्रारब्धं वर्तते। देशदर्शन कार्यक्रमं ह्यः उद्घाटयन् संस्कृति पर्यटन नागरिक उड्डयन मन्त्री योगेश भट्टराई अभियानस्य प्रतीकचिह्नं सन्देशमूलक श्रव्यदृश्य सामग्रीश्च सार्वजनिक कृतवान्। तदवसरे मन्त्री भट्टराई अगदत् कोविड उनविंशतेः महामार्याः कारणेन शिथिले पर्यटने गतिशीले विहिते सति तेन आर्थिक गतिविधिं वर्धापयितुम् अनुकूलोर्जः प्रदास्यते। स्वास्थ्य सुरक्षायाः मापदण्डान् पूरयित्वा सिराह जनपदस्य मिर्चैया नगरपालिकायाः विद्यालयाः अद्यतः सञ्चाल्यन्ते। विश्वव्यापी रूपेण प्रसृतस्य कोविड उनविंशतेः संक्रमणस्य कारणेन दीर्घकालात् अवरुद्धं पठन पाठनं नगरपालिकायाः निर्णयानुसारेण अद्यतः नगरक्षेत्रस्य नैजाः सामुदायिकाश्च विद्यालयाः सञ्चाल्यन्ते।